रामचन्द्राय जनकराज जामनोहराय मामकाभीष्टदाय महितमङ्गलम् कोसलेशाय मन्दहासदास पोषणाय वासवादि विनुत सत्वराय मङ्गलम् शोभिताय भूरिमङ्गलम् ललितरत्नकुण्डलाय तुलसीवनमालिकाय जलजसदृशदेहाय चारुमङ्गलम् देवकी सुपुत्राय देवदेवोत्तमाय भावजाय